एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। अद्य पञ्चसप्तति तमः राष्ट्रिय प्रजातन्त्र दिवसः आराश्रम विविधै कार्यक्रमै सह आयोज्यमानोऽस्ति। नेपाले प्रजातन्त्र स्थापनायाः चतुःसप्तति वर्षाणि व्यतीतानि सन्ति। व्यतीतेषु वर्षेषु नागरिकैः न केवलं सत्तायाः एव दायित्वं निर्व्यूढं प्रत्युतः नागरिकाधिकाराः विधिनियमैः सुनिश्चित्य व्यवस्थापिताश्च सन्ति। सप्तोत्तर द्विसहस्रतम विक्रमवर्षस्य फाल्गुन मासस्य सप्तमे दिवसे देशे प्रजातन्त्रस्य स्थापनायाः स्मृतौ प्रतिवर्षं फाल्गुन मासस्य सप्तमे दिवसे प्रजातन्त्र दिवसः समायोज्यते। राष्ट्रिय प्रजातन्त्र दिवसस्य अवसरे शुभकामना सन्देशं ददता राष्ट्रपतिना रामचन्द्र पौडेलेन जनतायाः आकांक्षां पूरयितुं प्रजातन्त्र दिवसेन अतिरिक्तम् ऊर्जः प्रदीयते इति विश्वासः व्यक्तो वर्तते। शुभकामना सन्देशे राष्ट्रपतिना पौडेलेन फाल्गुन मासस्य सप्तम दिवसः नेपालस्य इतिहासे प्रकाशस्य नवीन युगस्य च प्रारम्भण दिवसस्य रूपेण स्मृतो वर्तते। एवमेव शुभकामना सन्देशं प्रयच्छन् उपराष्ट्रपतिः रामसहाय प्रसाद यादवः नेपालस्य संविधानस्य अनुसारेण लोकतान्त्रिक गणतन्त्रस्य समानतायाः समावेशितायाः धर्मनिरपेक्षतायाः विधेः राज्यस्य सार्वभौमसत्तायाश्च संरक्षणम् अद्यतनी आवश्यकता अस्ति इति उक्तवान् वर्तते। नेपाले जननिर्वाचनं प्रारभ्य नेपाली नागरिकैः स्वस्य मताधिकारस्य उपयोगकरणस्य दिनस्य स्मृतौ अद्य नवमः निर्वाचन दिवसः समायोज्यमानो वर्तते। देशे प्रजातन्त्र स्थापनायाः अष्टानां वर्षाणां पश्चात् पञ्चदशोत्तर द्विसहस्रतम विक्रमवर्षस्य फाल्गुन मासस्य सप्तमे दिवसे जननिर्वाचनं सम्भूतम् आसीत्। अस्मिन् वर्षे निर्वाचनस्य प्रभावकारिता समेषां नागरिकाणां सहभागिता चेति मूलसमाघोषेण आयोगेन मूलसमारोह समायोज्यमानो वर्तते। निर्वाचन दिवसस्य अवसरे शुभकामना सन्देशं प्रकाशयता प्रमुख निर्वाचन आयुक्तेन दिनेश कुमार थपलिया विधेन सांविधानिकं वैधानिकं च दायित्वं पूरयितुं आयोगेन अतिरिक्तेन क्रियाशीलेन भाव्यते इति प्रतिबद्धता व्यक्ता अस्ति। प्रतिनिधिसभायाः स्थनोपवेशेन एतत् विक्रमवर्षीयं विद्युत् व्यापार विधेयकं पारिति कृतमस्ति। उपवेशे उद्योग वाणिज्यापूर्ति मन्त्रिणा दामोदर भण्डारिणा प्रस्तुतम् उद्योग वाणिज्य श्रमोपभोक्तृहित समितेः प्रतिवेदनेन सहितम् एतत् विक्रमवर्षीयं व्यापार विधेयकं पारिति कृतमस्ति। उपवेशे विधेयकमाधृत्य विहितस्य विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् उद्योगमन्त्री भण्डारी विधेयकेन उद्योग व्यवसाय क्षेत्रेष् वैदेशिकं निवेशम् आक्रष्टुं नवोद्योगिनः प्रोत्साहयितुं वृत्त्युपार्जनस्यातिरिक्तान् अवसरान् स्रष्टुं च सहयोगो विधास्यते इति विश्वासम् अभिव्यक्तम्। एवमेव उपवेशे प्रधानमन्त्रिणः पक्षतः रक्षामन्त्री मानवीर राही महान्यायाधिवक्तुः कार्यालयस्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रास्तौत। प्रतिनिधिसभायाः ह्यस्तनोपवेशे ऊर्जा जलस्रोत सेचन मन्त्री दीपक खड्का भारत सर्वकारेण सह जनतायाः जातायाः संविधायाः अनुसारेण विभिन्नानाम् अष्टानाम् अन्तर्देशीय विद्युत् प्रसारण मार्गाणां निर्माण कार्यम् अग्रे वर्धमानमस्ति इति अगदत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदः भारतीय अध्ययनरतायाः छात्रायाः प्रकृति लम्सालस्य शंकास्पद मृत्युः घटनायाः विषये उच्चस्तरीय कूटनीतिक संवादेन यथार्थम् अन्वेष्टुं सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। प्रतिनिधिसभायाः अपरोपवेशः आगामिनि रविवासरे दिवा एकवादने वस्ता। शिक्षा विज्ञान प्रविधि मन्त्रालयेन भारतस्य उडिसा राज्ये वर्तमाने कलिंगा इन्स्टिच्यूट अफ इण्डस्ट्रियल टेक्नोलोजी नाम्नि विश्वविद्यालये अध्ययनरतायाः छात्रायाः प्रकृति लम्सालस्य भूतं रहस्यमय मृत्युं तत्पश्चात् नेपाली विद्यार्थिनं प्रति विहितं व्यवहारञ्च प्रति गभीरं ध्यानाकर्षणं सम्भूतमस्ति इति ज्ञापितम् अवर्तते। मन्त्रालयेन ह्य विज्ञप्तिं प्रकाश्य विद्यार्थिभिः सम्बद्ध विश्वविद्यालयेन निर्धारितं नियमानुसारेण अर्पणीयं शुल्कं प्रदाय अध्ययनं कर्तुं शक्यते इति विश्वव्यापिन्याः मान्यतायाः विपरीततया विश्वविद्यालय प्रशासनेन तत्र अध्ययनरतान् विद्यार्थिनः प्रति विहितो व्यवहारः निन्दनीयोऽस्तीति ज्ञापितम् अवर्तते। विज्ञप्तौ विद्यार्थिनां पठन पाठन कार्यं यथाशीघ्रं पूर्ववत् संचालयितुं व्यवस्थायै भारत सर्वकारस्य ध्यानाकर्षणं विहितमस्ति इति मन्त्रालयस्य सहसचिवेन शिवकुमार सापकोटाभिधेन प्रकाशितायां विज्ञप्तौ ज्ञापितञ्च वर्तते। विज्ञप्तौ घटनातः सृष्टायाः समस्यायाः न्यायपूर्ण वैधानिक रूपेण समाधाने असति भविष्यति भारतस्य उड़ीसा राज्यस्य विश्वविद्यालयेषु शिक्षण संस्थासु च अध्ययनाय प्रदीयमानस्य वैदेशिकाध्ययनानुमतिपत्रस्य कार्यं स्थगितीकर्तुं शक्यते इति उल्लिखितं च वर्तते। अत्रान्तरे परराष्ट्र मन्त्रिणा डाक्टर आर्जु राणा देउवा विधया नेपाली विद्यार्थिनः प्रकृति लम्सालस्य मृत्योः तत्पश्चात् विकसित परिस्थितेः नैरन्तर्येण अवलोकनस्य कार्यम् उत्पन्न समस्यायाः समाधानाय प्रयासश्च विधीयमानौ स्तः इति उक्तम् वर्तते। परराष्ट्र मन्त्रालयस्य प्रयासस्य पश्चात् सम्प्रति सम्बद्ध विश्वविद्यालयेन दुर्व्यवहारकारिणः कर्मचारिणः दण्डिताः सन्तीति सार्वजनिक सूचनायाः माध्यमेन ज्ञापितम् अस्ति। विद्यार्थिनः छात्रावासं पुनः प्रत्यावर्तितुम् अनुरुद्धाश्च वर्तन्ते। राष्ट्रियसभया जलपोत विधेयकं विमर्शनाय विधायन व्यवस्थापन समितौ प्रेषितमस्ति। राष्ट्रियसभायाः स्थनोपवेशेन जलपोत संचालन व्यवस्थापन सम्बद्धम् एतद् विक्रमवर्षीयं विधेयकम् एतत् प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेष्यतामिति निगद्य भौतिक पूर्वाधार यातायात मन्त्रिणा देवेन्द्र दाहालेन प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। स्थनोपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहालः लोकसेवा आयोगस्य गतार्थिक वर्षस्य पञ्चषष्टितमं वार्षिकं प्रतिवेदनं प्रस्तौत। उपवेशी राष्ट्रसभायाः अध्यक्षः नारायण प्रसाद दाहालः बुटवल स्थानस्य छात्रायाः प्रकृति लम्सालस्य मृत्योः विषये कारणम् अन्वेष्टुं याचनाम् अकरोत्। उपवेशे सांसदः भारतस्य उड़ीसा राज्यस्य विश्वविद्यालय अध्ययनरतायाः बुचोल स्थानस्य प्रकृति लम्सालस्य मृत्योः घटनायाः विषयम् अनुसन्धातुं सर्वकारेण तत्कालमेव प्रयत्नं विधेयम् इत्यत्र बलं दत्तवन्तः। प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षं नेपाल संस्कृत विश्वविद्यालयस्य भूम्याः अन्वेषण समित्या स्वप्रतिवेदनं हस्तान्तरितमस्ति। बालुवाचारवर्तिनी प्रधानमन्त्री निवासे समितेः संयोजकेन शेखर प्रसाद पौडेलेन विश्वविद्यालयस्य विद्यमानायाः भूमेः अतिक्रमणस्य तन्निराकरणस्य उपयोगस्य च विषये सपरामर्शं प्रतिवेदनं विश्वविद्यालयस्य कुलपतेः प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः समक्षं प्रस्तुतं वर्तते।